अच्युतेशाय सूर्यायादित्यवर्चसे भास्वते सर्वभक्षाय रौद्राय वपुषे नमः
तमोज्ञाय हिमाज्ञाय शत्रुज्ञाय मितात्मने कृतज्ञज्ञान देवाय ज्योतिषां पतये नमः
तप्तचामीकराभाय वन्दये विश्वकर्मणे नमस्तमोभिनिज्ञाय रुचये लोकसाक्षिणे नाश्यत्येष वैभूतं तदेव सृजति प्रभुः पायत्येष तपत्येष वर्षत्येष कपस्थिभिः येष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः येष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणां वेदाश्च कृतवश्चैव कृतूनां फलमेव च यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः
येन मापत्सु कृष्टेषु कान्तारेषु भयेषु च कीर्तयन् पुरुषः कश्चिन् नावसीदति राघव
पूज्यस्वैनामेकाग्रो देवदेवं जगत्पतिं एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि अस्मिन् क्षणो महाबाहो रावणं त्वं विधिष्यसि एवमुक्त्वा तदागस्त्यो जगाम च यथागतं एतत् श्रुत्वा महातेजा नष्टशोको भवत्तदा एतत् श्रुत्वा महातेजा नष्टशोको भवत्तदा धारयामास सुप्रीतो राघव प्रयतात्मवान् आदित्यं प्रेक्षयच्चप्त्वा तु परं हर्षमवाप्तवान् तिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् सर्वयत्नेन महतावधे तस्य धृतोऽभवत्
अथ रवीरवदनिरीक्ष्य रामम् मुदितमनाः परमं प्रहृष्यमाणः निशिचरपति संक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरे